एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। प्रधानमन्त्री केपी शर्मा ओली नेपालः सदैव विश्वशान्तेः मानवाधिकाराणाम् न्यायस्य च पक्षस्थिति स्पष्टयति। प्यालेस्टाइन देशस्य विरूद्धे इजरायल देशेन विध्यमानस्य प्रहारस्य युद्धस्य च विपक्षे नेपालेन भवनीयमिति याचनया प्रस्तुतं विभिन्न राजनैतिक दलानां नागरिक संस्थानां च ध्यानाकर्षण पत्रं गृह्णन् प्रधानमन्त्री ओली। तटस्थता नाम बलवद्भिः दुर्बलानाम् उपरि अन्यायो विधेयः, दुर्बलैः स च अन्यायः सोढव्यः इति न भवति इति भाषमाणः। ध्यानाकर्षण पत्रे उत्थापितानां विषयाणां विपरीततया सर्वकार न चलिष्यति इति समस्पष्टयत्। प्रधानमन्त्री ओली नेपालः कस्याः अपि शक्तिर्विरूद्धे न युध्यते, सैन्य संगठने सहभागी न भविष्यति च परम् अन्यायोऽपि न सहिष्यते इति समस्पष्टयत्। प्रधानमन्त्री ओली अवोचत् विश्वे असहाय भूत शान्तेः न अपितु न्यायपूर्ण शान्तेः मानवाधिकाराणाम् रक्षायाश्च पक्षे नेपालोऽस्ति। ध्यानाकर्षणपत्रे नेपालस्य तटस्थ परराष्ट्र नीतेः मान्यतायां परिवर्तनं विधाय अन्याये विद्यमानानां राष्ट्राणां पक्षे संयुक्त राष्ट्रसंघ प्रवृत्तिषु मञ्चेषु नेपालेन मतं प्रदेयमिति याचितमस्ति। ज्ञापनपत्रे हमास समूहस्य नियन्त्रणे विद्यमानस्य नेपालिनः विपिन जोशिनः इजरायल देशे वर्तमानानां नेपाली यूनां च जीवनरक्षायै युद्धकालं यावत् नेपालम् आनयनाय अपि अभियाचितमस्ति। राष्ट्रपतिः रामचन्द्र पौडेलः भासते अस्यामेव व्यवस्थायां जनतायाः भविष्यं सुरक्षितमस्तीति जनेषु विश्वासोत्पादनं संघीय लोकतान्त्रिक गणतन्त्रस्य लक्ष्यं वर्तते। शीतलनिवासवर्तिनी राष्ट्रपति भवने ह्य आयोजिते महेन्द्र नारायण निधि इत्यस्य संघर्षमयं जीवनमाधृत्य लिखितं नेपालका निधि इति नामकं पुस्तकं लोकाय अर्प यन् राष्ट्रपति पौडेलः संघीय लोकतान्त्रिक गणतन्त्रस्य लक्ष्यं पूरयितुं न्यायपूर्णस्य समावेशिनः समृद्धस्य च नेपालस्य निर्माणार्थं सर्वै एकीभूय कार्यं कर्तव्यमिति प्रावोचत्। राष्ट्रपते पौडेलः जनविश्वासं दृढयितुं शासन प्रणाल्यां पारदर्शिता उत्तरदायित्वपूर्णं सुशासनं च प्रथम शपथो वर्तते इति अगदत्। सभामुखा देवराज घिमिरे निगदति शिक्षा सम्बद्धं विधेयकं संसदि शीघ्रमेव पारितीकर्तुम् आत्मना भूमिका निरूह्यते। झापा जनपदस्य बिर्तामोडवर्तिना इन्द्रचन्द्र महाविद्यालयेन ह्य आयोजिते कार्यक्रमे सभामुखा घिमिरे प्रतिस्पर्धिनीं क्षमतायुताञ्च जनशक्तिम् उत्पादयितुं तदनुरूपं श्रमं विधातुं च महाविद्यालयं विद्यार्थिनश्च अन्वरुणत्। गृहमन्त्री रमेश लेखका विधेयके विपरीततया विधीयमानाः गतिविधयः दण्डनीयाः भवन्तीति स्पष्टयति। ह्य नेपाली कांग्रेस दलस्य कञ्चनपुर शाखया महेन्द्रनगरे आयोजितं मेलन कार्यक्रमं सम्बोधयन् गृहमन्त्री लेखका देशे शान्तिं सौहार्दं च स्थापयितुं सर्वकारः केन्द्रितोऽस्तीति प्रावोचत्। गृहमन्त्री लेखका मर्यादितय शैल्या आलोचना विरोध प्रदर्शनं च कर्तुं शक्यते, अमर्यादित शैल्या विद्यमानः गतिविधयः सोढव्या न भवन्तीति च उदैरयत्। गृहमन्त्री लेखका सुदूरपश्चिम प्रदेशात् प्रारब्धया प्रदेशस्तरीय सुरक्षा गोष्ठ्या नूतन योजनाः निर्मातुं सहयोगो भविष्यति इति विश्वासं व्यक्तवान्। सर्वकारेण आराष्टम् चतुर्दश वर्षेभ्य न्यूनवर्षाणां वयस बालबालिकानां अर्बुदरोगस्य उपचार निःशुल्कं प्रारब्धो वर्तते। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेला ह्य भक्तपुरस्य अर्बुद चिकित्सालये निःशुल्कं बालार्बुदोपचार सेवाया शुभारम्भं व्यदधात्। कार्यक्रमे मन्त्री पौडेलः स्वास्थ्य क्षेत्रे विद्यमानानां सीमित स्तराधन स्रोतसां जनशक्तेः पूर्वाधाराणां च विद्यमानतायां सत्यमपि असीमितता सेवाया प्रदान पुरस्सरं आराष्ट्रं स्वास्थ्य सेवां प्रभावकारिणीं विधातुं चतुर्दश वर्षेभ्यः न्यूनवयस बालबालिकानां निःशुल्कम् उपचार सेवा प्रारब्धास्तीति समस्पष्टयत्। विश्व स्वास्थ्य संघटनस्य सहयोगेन अन्येषां निकायानां समन्वयेन च अवशिष्ट स्रोतसः सर्वकारेण व्यवस्थायाः विधानत्वेन सेवेयं प्रारब्धास्तीति मन्त्री पौडेलः अज्ञापयत्। मन्त्री पौडेलः सर्वकारेण काष्ठमण्डपस्य कान्तिबाल चिकित्सालय, भक्तपुरस्य भक्तपुरार्बुद चिकित्सालय, चितवञ्जनपदस्य बीपी कोइराला स्मृत्यर्बुद चिकित्सालय छ। बालबालिकानाम् अर्बुद रोगस्य उपचार सेवा निःशुल्कं विधातुं निर्णीतमस्तीति असूचयत्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री पाण्डे अन्तर्राष्ट्रियम् उड्डयनम् विदधतिभ्य वायुसेवा संस्थाभ्य चतुर्विंशति घण्टानाम् अभ्यन्तरे विमानयात्रा शुल्कस्य विवरणम् प्रस्तुतुम् निर्दिशति। विमानयात्रा शुल्कस्य वर्धनस्य विषये मन्त्रालये ह्यो वीते विमर्शने सम्बद्ध वायुसेवा संस्थाभिः अधिकं विमानयात्रा शुल्कं गृह्यमाणम् अस्तीति वेदनायाः प्राप्तेः पश्चात् विषयेऽस्मिन् पुनर्विचारं कर्तुं मन्त्री पाण्डे निरदिशत। एतत्पूर्वम् उड्डयन सेवा संस्थानैः नियामक निकायैः सह विहिते विमर्शने नियन्त्रणाय पञ्चसूत्रीय सहमतौ धृतायं सत्यमपि तस्याः क्रियान्वयनं न विहितमिति मन्त्री पाण्डे उक्तवान्। मन्त्रालयस्य सचिव डा गणेश पाण्डेय संविधायानुसारेण वायुसेवा संस्थानै कथम् औदासीन्यं प्रदर्श्यते इति प्रश्नम् अकरोत्। नेपाल नागरिकोड्डयन प्राधिकरणस्य महानिर्देशक प्रदीप अधिकारी वायुसेवा संस्थाभि विमानयात्रा शुल्क सम्बद्धा पञ्चसूत्रीया सहमति न क्रियान्विता विमानयात्रा प्रपत्रस्य कृत्रिम अभावः सृज्यमानोऽस्ति च कारणेन एतन्नियन्त्रयितुं प्रतिबद्धतां व्यक्तवान्। परराष्ट्रमन्त्री डाक्टर आरजू राणा देउवा क्रीडा कौटनीतेः विकासाय विस्ताराय च आवश्यकं सहयोगं प्रापयितुं क्रीडा सम्बद्धान् साहसिक खेल क्षेत्रेण सह सम्बद्धान् निकायान् पदाधिकारिणां च अनुरुणद्धि। परराष्ट्र मन्त्रालय ह्य आयोजिते साहसिक खेल सम्बद्धे उच्चस्तरीय परामर्शोपवेशे मन्त्री डाक्टर राणा नेपाले साहसिक क्रीडायाः माध्यमेन क्रीडा कौटनीतेः विकासस्य विस्तारस्य च प्रशस्ताः सम्भावनाः सन्ति इति कारणेन तदर्थं सम्बद्धान् निकायान् अधिकारिणश्च अन्वरुणत्। वर्तमानार्थिक वर्षस्य मास चतुष्टयावधौ द्वादशाब्जानाम् एकसप्ततेः कोटीनाम् चतुर्नवतिर्लक्षाणाम् ऊनषष्ठेः सहस्राणाम् च रूप्यकाणाम् विद्युतः भारतदेशे निर्यातः विहितोऽस्ति। गतश्रावण भाद्राश्विन कार्तिक मासेषु देशाभ्यन्तरे उपभुज्य अवशिष्टायाः एकाब्जम् षट्षष्टिः कोटयः अष्टासप्ततिर्लक्षाणि द्वानवति सहस्राणि चेति युनिट् परिमितायाः विद्युतः भारतदेशे निर्यातः विहितोऽस्तीति विद्युत् प्राधिकरणेन ज्ञापितम् वर्तते। प्राधिकरणेन भारतस्य हरियाणा बिहार राज्ययोः प्रति युनिट् परिमितायाः विद्युतः 10.37 रूप्यकैः विक्रयणं विधीयमानमस्तीति ज्ञापितं वर्तते। प्राधिकरणस्य कार्यकारी निर्देशकः कुलमान घिसिङ गताश्विनमासे दूरापन्नयोः जलविप्लव भूस्खलनयोः कारणेन जलविद्युत केन्द्रेषु प्रसारण प्रणाल्यां च क्षतिः प्रापितास्ति, तेन च विद्युतः उत्पादने प्रभावं सृष्ट्वा निर्यातोऽपि प्रभावितो वर्तते इति असूचयत्। चिकित्सा व्यवसायिनं दुर्गा प्रसाई इत्यमुं पञ्चदिनानि कारावासे स्थापयितुं न्यायालयेन अनुमति प्रदत्तास्ति। ह्य काष्ठमण्डप जनपद न्यायालयेन प्रसाई इत्यमुं पञ्चदिनानि प्रहरी नियन्त्रणे स्थापयितुम् अनुमति प्रदत्तास्तीति साञ्जालिकापराध नियामक निकायस्य प्रवक्ता दीपकराज अवस्थी असूचयत्। इति समाचाराः।